इयम् आकाशवाणी सम्प्रति सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी अथ वार्ताः लोकसभा निर्वाचनस्य पञ्चमचरणस्य कृते प्रचाराभियानं गतसायं समाप्तम्। पञ्चमचरणे उत्तरप्रदेशस्य चतुर्दश आसनेभ्यः, महाराष्ट्रस्य त्रयोदश आसनेभ्यः, पश्चिमबंगालस्य सप्तासनेभ्यः, बिहार ओडिशा राज्ययोः प्रत्येकं पञ्च आसनेभ्यः, झारखण्डस्य आसनत्रयेभ्यः, जम्मूकश्मीर लद्दाखयोः च प्रत्येकं एकैकाय लोकसभासनाय श्वः सोमवासरे मतदानं भविष्यति। इदानीं विभिन्न राजनीतिक दलानां शीर्षनेतारः अग्रिमचरणस्य निर्वाचनाय प्रचारं तीव्रं कृतवन्तः। प्रधानमन्त्री तथा भाजपा दलस्य वरिष्ठनेता नरेन्द्रमोदी आश्वासनं दत्तवान् यत् एनडीए सर्वकारस्य सर्वोच्च प्राथमिकता कृषकाणां कल्याणमेव। ह्यः हरियाणायाः अम्बालानगरे जनसभां सम्बोधयन् श्रीमोदी कृषकाणां महिलानां च कल्याणाय कृतानि कार्याणि प्रकाशितवान्। तदनु सोनीपतनगरस्य गोहानानगरे अन्यां जनसभां सम्बोधयन् सः अवदत् यत् विकसित भारतस्य लक्ष्यं पूरयितुं निर्धनजनाः, युवानः, कृषकाः, महिलाः च शक्ताः कर्तुं भाजपा सर्वकारस्य प्रतिबद्धता अस्ति। गतसायं पूर्वोत्तर दिल्लीनगरे जनसभा सम्बोधयता प्रधानमन्त्रिणा उक्तं यत् भारतीय राजनीतेः कृते सुस्थिर सर्वकारस्य आवश्यकता अस्ति। श्रीमोदिना उक्तं यत् परिवारवादस्य मानसिकतां पराजयितुं चतुर्विंशत्यधिक द्विसहस्रतमवर्षस्य सामान्य निर्वाचनं महत्वपूर्णम् अस्ति। राष्ट्रिय राजधानी विश्वस्य आकर्षणं भवितुमर्हति इति बोधयन् सः अवदत् यत् G20 शिखर सम्मेलनावधौ दिल्लीनगरस्य परिवर्तनेन वैश्विकनेतारः विस्मिताः सन्ति। श्रीमोदी आक्षिप्तवान् यत् एनडी संयुक्तिः विकासकार्येषु अवरोधं जनयति। तत्रैव वरिष्ठः कांग्रेस नेता राहुलगांधी उक्तवान् यत् इंडी संयुत्याः प्रथमोद्देश्यं संविधानस्य रक्षणम् एव अस्ति। गतसायं नवदिल्ल्याः रामलीला प्रांगणे सभां सम्बोधयन् राहुलगांधी आरोपितवान् यत् सत्तारूढदलं संविधानं दुर्बलं कर्तुमिच्छति। भाजपेति दलस्य वरिष्ठनेता प्रधानमन्त्री च नरेन्द्रमोदी अद्य पश्चिमबंगे जनसभां सम्बोधयिष्यति। दलस्य लोकसभाप्रत्याशिनः समर्थने पुरुलिया लोकसभा निर्वाचनक्षेत्रे अपराह्ने प्रायः सार्धद्वादशवादने जनसभां सम्बोधयिष्यति। तदनन्तरं श्रीमोदी अपराह्ने बांकुरा मण्डलस्य विष्णुपुरे, मेदिनीपुर लोकसभाक्षेत्रस्य खड्गपुरे च जनसभां सम्बोधयिष्यति। भारतेन किर्गिस्तानस्य विश्केक नगरे भारतीय विद्यार्थिभ्यः गृहेषु एव स्थातुं परामर्शः प्रदत्तः। विदेशी विद्यार्थिनः आलक्ष्य हिंसायाः प्रतिवेदनानन्तरं अयं परामर्शः प्रसारितः। विश्केक इत्यत्र भारतीय विद्यार्थिनां सुरक्षां सुनिश्चीय विदेशमन्त्री सुब्रह्मण्यम् जयशंकरः अवोचत् यत् स्थितेः निरीक्षणं विधीयते। सम्प्रति तत्रत्य स्थितिः नियन्त्रणे वर्तते। श्रीजयशंकरेण विद्यार्थिनः दूतावासेन सह सम्पर्क स्थातुं परामृष्टः। किर्गिस्ताने भारतीय दूतावासेन विद्यार्थिभ्यः आपत्कालिक दूरभाष संकेतः 0555710041 इति प्रख्यापितम्। किर्गिस्तानस्य विश्केक स्थले विगतेभ्यः कतिपय दिनेभ्यः हिंसः घटनाः जायन्ते, यासु पाकिस्तानस्य पञ्च विद्यार्थिनः मृत्युमुपगताः। मुष्टामुष्टि प्रतियोगितायां ह्यः कजाकिस्तान देशस्य आस्तानानगरे चतुर्विंशत्यधिक द्विसहस्रतमवर्षस्य एलोडा चषक प्रतिस्पर्धायां भारतस्य कृते वर्तमान विश्वविजेता निखित जरीनः, मीनाक्षी च स्वर्णपदकं विजितवन्तौ। आईपीएल क्रिकेट प्रतिस्पर्धायां बेंगलुरूनगरस्य क्रीडांगणे चेन्नई सुपरकिंग्स दलं रॉयल चैलेंजर्स बेंगलुरू दलेन पराजितम्। इति वार्ताः।